गुरु ब्रह्म गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परब्रह्मतस्मै गुरवे नमः। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र असमवायिकारणं। तत्र वयं समवायिकारणं दृष्टवन्तः। तत्र उदाहरणार्थं तत्र घटः भवति रक्तरूपघटः, नाम रक्तरूपं घटे वर्तते, तर्हि तत्र घटः रूपस्य आश्रयः, तर्हि तत्र आश्रयं विना तत्र गुणः न तिष्ठति, तर्हि तत्र घटः घटे विद्यमानं रूपं प्रति कारणम्, अपि तत्र घटः स्वस्मिन् तत्र तादात्म्येन भवति, अपि रूपं तत्र समवायिन अस्ति, यतोहि रूपम् अपि गुणः गुणगुणिनोः तत्र समवायीसम्बन्धः इति जानीमः। तर्हि तत्र घटः स्वस्मिन् तादात्म्येन स्थित्वा गुणं समवायेन उत्पादयति, जनयति इति कृत्वा समवायिकारणम् इति उक्तवन्तः। तथैव तत्र गतवर्गे वयं तत्र असमवायिकारणस्य दक्षिणवाक्यं परिशीलितवन्तः। तत् पश्यामः, किञ्चित् पुनःस्मरणं कृत्वा अग्रे सरामः। अस्तु, तर्हि तत्र प्रायश तत्र कुर्मः तत्र तर्हि तत्र समीचीनमस्ति। तर्हि तत्र उदाहरणं कुर्मः। तर्हि तत्र योगेन्द्रमहोदय, तत्र समवायिकारणस्य एकम् उदाहरणं वदतु महोदय। योगेन्द्रमहोदय,
समवायिकारणस्य एकम् उदाहरणमस्ति अधिकरणम्।
अस्तु, तर्हि तत्र किमपि वदतु महोदय, तत्र प्रसिद्ध उदाहरणं यत् वयं पूर्वं कृतवन्तः।
क्षम्यताम्,
किमपि उदाहरणं वदतु महोदय। समवायिकारणं कार्यं कारणम् इति
घट अधिकरणम् अस्ति, घटे समवायिकारणेन तिष्ठति।
अस्तु, तत्र घटः रूपम् अहं तद् उदाहरणम् अहम् उक्तवान्, अन्यत् किमपि उदाहरणं वदति वा? अस्तु, तर्हि तत्र पद्मा भगिनी,
वदतु
भगिनि।
घटः कपाले वर्तते इति
समीचीनम्। अस्तु, तर्हि उत्तमं। तर्हि अस्तु, तत् स्वीकुर्मः। तर्हि तत्र घटः अस्ति, घटः अस्ति, कपालः अस्ति। अस्तु, तर्हि तत्र कारणं किं, कार्यं किम् इति वदति वा प्रथमतया?
कपालः कारणं, घटः कार्यं।
कार्यम् अपि अधिकरणं किमस्ति?
कपालः एव।
कपालः एव, अस्तु समीचीनम्। तत्र कार्यकारणभावे तत्र अंशत्रयं वक्तव्यं, नाम कार्यं किं, कारणं किम्, अपि अधिकरणं, यतोहि समानाधिकरणम् इति नियमः अस्ति खलु। तर्हि भवितव्यं, सर्वदा भवितव्यं, नाम
क्षणे अपि
भवितव्यम् इति समीचीनं भगिनि। हा, तर्हि तत्र अस्तु उत्तमं। तर्हि तत्र इदानीं वयं जानीमः तत्र कार्यम् अस्ति, कारणम् अस्ति, अधिकरणम् अस्ति इति। अस्तु, इदानीं तत्र घट तत्र कार्यं केन सम्बन्धेन अस्ति कपाले?
कार्यं कारणे समवायसम्बन्धेन भवति,
अधिकरणे अधिकरणे अधिकरणे
अधिकरणे कारणं कार्यम् अधिकरणे समवायसम्बन्धेन अन्वेति,
समवायसम्बन्धेन अस्ति, समीचीनम्। अस्तु, अपि
कार्यम् अधिकरणे तादात्म्यसम्बन्धेन पृच्छति।
तादात्म्यसम्बन्धेन अस्ति, उत्तमं, तादात्म्यसम्बन्धेन अस्ति, समीचीनं। हा तर्हि तत्र अपि पूर्णवाक्यं किं भवति? कपालः स्वस्मिन् इति,
कपालः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ट्वा कार्यं समवायसम्बन्धेन उत्पादयति,
उत्पादयति घटकार्यम् उत्पादयति। उत्तमं भगिनि, हा धन्यवादः, अस्तु समीचीनं। हा इदानीं तत्र इदानीं धन्यवादः भगिनि। इदानीं तत्र उषा भगिनी, नमस्कारः।
नमस्कारः महोदय।
नमस्कारः भगिनि। हा अस्तु, इदानीं तत्र भवती प्रायशः इदानीं वक्तुं प्रायशः न इच्छति, किन्तु अग्रे वदतु भगिनि। हा तत्र अन्यं पृच्छामि, तदनन्तरं भवती वदतु। अस्तु तर्हि तत्र नीता भगिनी, तत्र असमवायिकारणं तस्य उदाहरणं वदति वा?
असमवायिकारणम् इति कपालद्वयसंयोगः, कपालद्वयसंयोगः समवायेन कपाले तिष्ठति।
एकनिमिष भगिनी, तत्र कपालद्वयसंयोगः तत्र इति कार्यं वा कारणं वा? अत्र
कपालद्वयसंयोगम् इति कारणम्।
हा कार्यं किं
तत्र? कारणं कार्यम् इति घटः,
घटः अस्तु,
घटः इति कार्यम्।
अपि अधिकरणम्?
अधिकरणं तत्र कपालः एव अधिकरणरूपं।
कपालः अस्तु, कपालः अस्तु, समीचीनम्। अस्तु
कपालद्वयम् इति कारणं, कपाल इति अधिकरणं, घट इति कार्यम्।
अस्तु
इदानीं कपालद्वयसंयोगः समवायेन कपालः इति कारणे, कपालद्वयसंयोगः समवायेन कपालः इति कारणे भूत्वा कार्यम् उत्पादयति, घट इति कार्यम् उत्पादयति, तत् समवायेन घट इति कार्यम् उत्पादयति।
समीचीनम्। अस्तु तर्हि
कपालद्वयसंयोगः इति गुणः समवायेन कपाले इति कारणे स्थित्वा समवायेन घट इति कार्यम् उत्पादयति, अतः कपालद्वयसंयोगः इति गुणः यत् असमवायिकारणम् इति वर्तते।
हा समीचीनं। तर्हि तत्र प्रायशः एतत् अत्र न वक्तव्यम्, एकनिमिषः भगिनि, हा तत्र किञ्चित् समीकरोमि एकनिमिषः। तर्हि तत्र हा तर्हि प्रायशः अत्र समीचीनमस्ति, नाम अत्र अधिकरणम् एव, अधिकरणं समवायिकारणमस्ति खलु, असमवायिकारणस्थले
अधिकरणं समवायिकारणमस्ति।
अस्तु अत्र असमवायिकारणम् अपि अत्र समवायिकारणम् तर्हि तत्र यदि द्वयमपि योजयामः तर्हि तत्र किं भवति? तत्र यदि असमवायिकारणम् इति लिखामः तर्हि तत्र असमवायिकारणम् समवायिकारणे भवति,
तत् अधिकरणरूपेण
तत्र कार्यं भवति, अत्र कार्यं भवति, अपि पुनः तत्र कार्यं, तत्र अधिकरणम् इति भवति, अपि तत्र तादात्म्यसम्बन्धः इति,
तादात्म्यसम्बन्धः अपि भवति।
अस्तु अस्तु समीचीनं भगिनि। हा तत्र समवायः, समवायः अत्र समवायः इति भवति, किन्तु इदानीम् एतत् मास्तु, केवलं तत्र यदि तत्र मेलनं कर्तुम् इच्छामः तद्भवति, किन्तु पृथक् एव चिन्तयामः इदानीम्। अस्तु समीचीनं भगिनि। तर्हि तत्र इदानीं वाक्यं वदतु भगिनि, तत्र पुनः उक्तवती किन्तु तत्र कपालद्वयसंयोगः समवायेन इति आरभ्य
कपालद्वयसंयोगः समवायेन कपाले कपाले इति कारणे भूत्वा
समवायिकारणे समवायिकारणे
कपाले इति समवायिकारणे भूत्वा समवायेन घटः इति कार्यम् उत्पादयति
इति अस्ति समीचीनं भगिनि अस्तु समीचीनम् अस्तु अस्मिन् विषये कोऽपि प्रश्नः अस्ति वा यत् एतावत् वयं तत्र चित्रद्वयं समवायिकारणस्य अपि असमवायिकारणस्य यतोहि यदा यदि अस्मिन् विषये तत्र स्पष्टता नास्ति चेत् अग्रे न गन्तुं शक्नुमः अतः स्पष्टता भवेत्
स्पष्टता अस्ति
अस्तु भगिनि हा अन्य कोऽपि तत्र प्रश्नाः प्रश्नः अस्ति वा तत्र अस्तु तर्हि तत्र इदानीं तत्र अवच्छेदकः इति विषयः अपि तत्र स्थापनीयः अस्ति तर्हि तदपि कुर्मः तर्हि तत्र अतः तत्र इदानीं तत्र मृणालिनि भगिनि तत्र समवायिकारणस्थले तत्र कार्यता कुत्र अस्ति कारणता कुत्र अस्ति इति किञ्चित् वदति वा अत्र कस्मिंश्चित्
कालः कारणं घटः कार्यं कपालः अधिकरणमपि
हा कपालः अधिकरणमस्ति किं तर्हि तत्र कारणता कुत्र वर्तते कार्यता कुत्र वर्तते अत्र अस्मिन् उदाहरणे
कारणता कपाले वर्तते कार्यता घटे
घटे वर्तते अस्तु समीचीनम् अस्तु तर्हि हा लिखामः तर्हि अस्तु तत्र अत्र अस्मिन् तत्र कारणता वर्तते अपि घटे कार्यता वर्तते तयोः मध्ये निरूप्यनिरूपकभावः अस्ति खलु अस्तु इदानीं तत्र कारणतायाः अवच्छेदकः धर्मः वा अवच्छेदकः कः अस्ति
कारणतायाः अवच्छेदकः अस्ति सम्बन्धः खलु
उत्तमम् उत्तमं हा 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 तत् तथैव तर्हि कः सम्बन्धः के नाम केन केन सम्बन्धेन कारणम् अधिकरणे अस्ति इति द्रष्टव्यं तावदेव तर्हि केन सम्बन्धेन कारणम् अधिकरणे अस्ति
तादात्म्यसम्बन्धेन
तर्हि अवच्छेदकसम्बन्धः कः अत्र
तादात्म्य अवच्छेदकसम्बन्धः
तादात्म्यसम्बन्धः एव अवच्छेदकः समीचीनं हा तर्हि तत्र अवच्छेदकः तत्र तादात्म्यसम्बन्धः इति भवति अस्तु तर्हि तत्र तादात्म्यसम्बन्धः इति लिखामः तत्र तादात्म्यसम्बन्धः इति अपि अवच्छेदकः तादात्म्यः इति कृत्वा तादात्म्यसम्बन्धे का अस्ति सम्बन्धः यथा तत्र कपालः कारणमिति कृत्वा कपाले कारणता अस्ति तादात्म्यसम्बन्धः अवच्छेदकः इति कृत्वा तादात्म्यसम्बन्धे का अस्ति अवच्छेदकता हा उत्तमम् अवच्छेदकता
अवच्छेदकता अवच्छेदकधर्म उक्तवती अहं हा
अवच्छेदक अवच्छेदकता हा अवच्छेदकता तादात्म्यसम्बन्धे अस्ति अपि कारणता कीदृशी अस्ति कारणता
अवच्छेद्या
अवच्छेद्या अस्ति इति कृत्वा कारणतायां किं का अस्ति
अवच्छेद्यता
अवच्छेद्यता उत्तमं भगिनि हा तथैव हा अवच्छेद्यता वर्तते अपि तयोः मध्ये निरूप्यनिरूपकभावः इति भवति समीचीनं भगिनि हा इदानीं तथैव तत्र इदानीं तत्र अशोक् महोदय तत्र कार्यता कार्यतायाः अवच्छेदकः धर्मः कः अथवा सम्बन्धः कः
समवायसम्बन्धः महोदय
समवायसम्बन्धः अस्तु समीचीनं महोदय अस्तु तर्हि तत्र इत्र नास्ति समवायसम्बन्धः घटे अस्ति समवायसम्बन्धः घटे अस्ति अपि तत्र समवायसम्बन्धे का अस्ति
अवच्छेदकता अस्ति
अवच्छेदकता अस्ति अवच्छेदकता अस्ति उत्तमं महोदय अवच्छेदकता तत्र वर्तते अपि कार्यता मध्ये
अवच्छेद्यता
अवच्छेद्यता वर्तते अपि तयोः मध्ये निरूप्य निरूपकभावः अस्ति इति अस्ति हा अतः इदानीम् अशोक् महोदय भवान् प्रायः भवान् कर्तुं शक्नोति इति जानामि अतः महोदय तत्र तर्हि कारणं तत्र कपालः समवायिकारणम् इति तत्र अस्ति तर्हि तत्र समवायिकारणस्य लक्षणवाक्यं नाम समवायिकारणत्वं नाम कपे कपाले किमपि भवेत् लक्षणं भवेत् तर्हि तत्र लक्षणं किम् इति तत्र तत्र प्रायशः तत्र घटनिष्ठ इति आरभ्य प्रायशः वाक्यं भवति महोदय
घटनिष्ठ समवायसम्बन्ध अवच्छिन्न
उत्तमं महोदय हा सम्बन्ध समवायसम्बन्ध अवच्छिन्न कार्यता
निरूपित
तादात्म्यसम्बन्ध
अवच्छिन्न कारण आश्रयत्वं
समवायि
सम्बन्धस्य लक्षणं
समवायिकारणस्य
समवायिकारणस्य लक्षणम्
इति अस्ति महोदय उत्तमं हा हा तत् तथैव अस्ति अस्तु अन्यत् अन्य कोऽपि वदेत् महोदय उत्तमं महोदय धन्यवादः अस्तु योगेन्द्रमहोदय भवानपि एकवारं वदतु अत्र तत्र कपालः इति समवायिकारणं कारणस्य लक्षणं नाम लक्ष्यम् अस्ति कपालः तस्य लक्षणं नाम तस्मिन् विद्यमानः कोऽपि धर्मः तत्र कारणत्वं तत् किम् इति वक्तव्यं तर्हि तत्र योगिनमहोदय तत्र घटः इति आरभ्य तत्र कार्यता कारणता इति एतत् सर्वं वक्तव्यं तर्हि सोपानानि गच्छामः कपाले कपालः कारणमिति कृत्वा कारणता अस्ति खलु महोदय
कारणता अस्ति हा
सा कारणता केन अवच्छिन्ना अथवा कया अवच्छिन्ना अस्ति कारणता कारणता कपाले विद्यमानः कारणता केन अवच्छिन्ना अस्ति
तादात्म्य अवच्छिन्ना अस्ति
तादात्म्यसम्बन्ध अवच्छिन्ना समीचीनं तादात्म्यसम्बन्ध अवच्छिन्ना अस्ति कारणता अपि कारणता अपि कार्यता तयोः मध्ये कः कीदृशसम्बन्धः
कारणता निरूपितकार्यता
निरूपितकार्यता समीचीनम् अपि इदानीं कार्यता तत्र केन अवच्छिन्ना अस्ति कार्यता
कार्यता अवच्छिन्ना अस्ति समवायसम्बन्धेन
समवायसम्बन्धेन उत्तमम् अपि स एषः तत्र समवायसम्बन्धः अपि कार्यता तयोः
आश्रयः घटः
घटः हा अस्तु तर्हि इदानीं तत्र घटनिष्ठ इति आरभ्य कार्यता अपि
घटनिष्ठ
कारणता अस्ति किन्तु केवलं कारणता नास्ति कारणता तादात्म्यसम्बन्धावच्छिन्ना अस्ति केवलं कार्यता नास्ति यतोहि समवायसम्बन्धावच्छिन्ना कार्यता अस्ति अतः इदानीं वाक्यं वदतु महोदय तर्हि घटनिष्ठ इति आरभ्य
घटनिष्ठ कार्यता समवायसम्बन्धेन अवच्छिन्ना
कार्यता
निरूपिता निरूपिता तादात्म्यसम्बन्धेन अवच्छिन्ना कारणता आश्रयः कपालः
हा आशयः कपालः किन्तु तत्र कपाले आश्रय कपालः आश्रयः तर्हि कपाले आश्रयत्वं वर्तते खलु
वर्तते
तर्हि आश्रयत्वं कपालस्य नाम समवायिकारणस्य लक्षणम् यतोहि लक्षणं कुत्र भवेत् लक्ष्ये भवेत् अत्र लक्ष्यमस्ति कपालः कपालस्य डेफिनेशन् किम् इत्युक्ते एतत् सर्वं वक्तव्यं नाम लक्षणं नाम डेफिनेशन् किम् अस्ति यस्मिन् पदार्थे एतादृश तत्र कारणता एतादृशी कारणता अस्ति अपि नाम कारणतायाः आश्रयत्वं वर्तते सः एव तदेव तत्र समवायिकारणम् इति वक्तुमिच्छामः घटं घटं प्रति समवायिकारणम् केवलं तत्र समवायिकारणम् इति वदामश्चेत् तत्र किं भवति अनेकानि कारणानि सन्ति खलु अनेकानि कार्याणि सन्ति अनेकानि कारणानि सन्ति किन्तु वयम् इच्छामः केवलं घटस्य समवायिकारणं किम् इति तर्हि घटः इति लक्षणवाक्ये भवेत् खलु महोदय अतः एव तत्र घटनिष्ठकार्यता सा कार्यता समवायसम्बन्धावचिन्ना कार्यता तया कार्यतया निरूपितकारणता किन्तु सा कारणता तादज्ञसम्बन्धावचिन्ना अपि अस्ति अतः अन्यत् अन्यत् विशेषणं नाम एषा कारणता कीदृशी प्रथमविशेषणम् अस्ति
तादात्म्यसम्बन्ध अवचिन्ना
तादात्म्यसम्बन्ध अवचिन्ना कारणता अपि एषा कारणता कार्यतया निरूपिता अस्ति अतः तादात्म्यसम्बन्ध अवचिन्नकारणता अपि कार्यतया निरूपितकारणता किन्तु सा कार्यता कीदृशी कार्यतायाः अपि विशेषणं समवायसम्बन्ध अवचिन्नकार्यता इति अतः अपि घटनिष्ठा अपि अस्ति सा कार्यता तर्हि घटनिष्ठा
समवायसम्बन्धावचिन्नकार्यतायाः
आश्रयत्वं कपाले वर्तते इति कृत्वा आश्रयत्वं समवायिकारणस्य लक्षणम् इति भवति अस्तु समीचीनम् अवगतं खलु महोदय योगेन्द्रमहोदय
आम् अवगच्छामि आम्
अस्तु इदानीं तत्र यदि एतादृशं चित्रं वयं कर्तुम् इच्छामः किन्तु असमवायिकारणस्य कृते तर्हि तत्र कुत्र कुत्र परिवर्तनं भवति
यः कपालः अस्ति तत्र कपालद्वयसंयोगः भवति
अस्तु हा तद् लिखामः तर्हि समीचीनं महोदय अस्तु हा तर्हि अत्र संयोगः इति लिखामः अस्तु महोदय तर्हि तत्र अत्र संयोगः इति लिखामः अस्तु उत्तमं महोदय हा अस्तु अपि
कपालद्वयसंयोगः कपाले अस्ति कपाल तदनन्तरं
तत्र अन्यत्र कुत्र परिवर्तनम् अन्य कोऽपि वक्तुम् इच्छति
कपालस्य अधोभागे अधिकरणं भवति
अत्र
तादात्म्यसम्बन्धः नास्ति समवायसम्बन्धः अस्तु उत्तमं हा तर्हि तत्र समवायसम्बन्धः यतोहि संयोगः इति गुणः अपि अत्रापि
अवच्छेदकधर्मः अपि
समवायः इति भवति अस्तु इदानीं तर्हि तत्र पद्मभगिनी इदानीं भवती तत्र असमवायिकारणस्य लक्षणवाक्यं वदति वा
घटनिष्ठसमवाय अवच्छिन्न समवाय अवच्छिन्न घटनिष्ठकार्यता निरूपित समवाय अवच्छिन्न कारणता आश्रयः कपालः
आश्रयत्वं कपालसंयोगः
कपालः
कपालसंयोगे अस्ति कपालसंयोगे अस्ति अपि तत्र असमवायि इति लेखनीयम् असमवायिकारणं इति अस्ति समीचीनं भगिनी हा तत्र उषा भगिनी भवती अपि एकवारं वदति वा तत्र
आं महोदय
इदानीं दीर्घवाक्यम् एकदं मास्तु तत्र सोपानेन गच्छामः तर्हि तत्र अंशः अंशत्रयं किं किम् इति वदतु अस्मिन् उदाहरणे असमवायिकारणस्य उदाहरणे
असमवायिकारणस्य उदाहरणे कपालसंयोगः कपालसंयोगः इति कारणता अस्ति घटः इति कार्यं
घटः अस्ति कार्यं समीचीनं
घटः अस्ति कार्यं कपालः अस्ति अधिकरणम्
अधिकरणं समीचीनं
कपाल घटनिष्ठ
अपि कपालसंयोगः केन सम्बन्धेन अधिकरणे अस्ति
कपालसंयोगः समवायसम्बन्धेन अधिकरणे अस्ति
किमर्थम्
कपालसंयोगः अत्र असमवायिकारणम् इति कृते
किन्तु किमर्थं तत्र सम्बन्धः समवायः नाम संयोगः इति कपाले कपालसंयोगः संयोगः इति कीदृशपदार्थः
संयोगः
नाम द्रव्यं वा गुणकर्म किम्
गुण महोदय
गुणः अतः गुणः गुणिनि समवायेन वर्तते समवायेन वर्तते अपि तत्र कपाले घटः समवायेन वर्तते यतोहि अवयवयोः मध्ये समवायः इति अस्ति समीचीनं हा अस्तु इदानीं वाक्यं वदतु भगिनि
घटे कार्यता अस्ति सो घटनिष्ठ समवायसम्बन्ध अवच्छिन्नकार्यता अस्ति
समीचीनं
घटनिष्ठसमवायसम्बन्ध अवच्छिन्नकार्यता निरूपित निरूपित समवायसम्बन्ध अवच्छिन्न कारणतायाः कपाल संयोगे वर्तते इति कारणतायाः आश्रयत्वं कपालसंयोगे वर्तते
तदेव
असमवायिकारणम् कारणत्वम् इति
नाम संयोगः साक्षात् कारणं तर्हि तत्र तस्मिन् किम् अस्ति तत्र विशेषतया असमवायिकारणे किम् अस्ति इति प्रश्ने तत्र किमपि विशेषं यद् अन्यत्र नास्ति केवलम् अस्मिन्नेव अस्ति तत्र लक्षणं नाम आश्रयत्वम् एतादृश आश्रयत्वम् असमवायिकारणे कपालकारणे
वर्तते
वर्तते इति समीचीनं भगिनि हा अस्तु तर्हि इदानीं तत्र अवच्छेदकधर्मः इति उपयुज्य अपि तत्र चित्रं लिखितवन्तः अस्मिन् विषये कोऽपि प्रश्नः एतादृशं चित्रं सर्वे कर्तुं शक्नुवन्ति कृपया करोतु किमपि उदाहरणं स्वीकृत्य करोतु अपि यत्र यत्र तत्र परिवर्तनं करणीयम् एतत् सर्वं पश्यतु यतोहि यदि एतादृशं चित्रं वयं कुर्मः तत्र दीर्घवाक्यं यद्भवति तेन वयं किमपि तत्र एतादृशं वाक्यं पश्यामः तत्र किमपि नास्ति इति अवगच्छामः अस्तु अहं वयं जानीमः इति मनसि भवेत् तत्र दीर्घवाक्येन तत्र ओ मनसि क्लेशः उद्भवति इति मास्तु ओ सरलमेव अस्ति इति चिन्तनं नाम दीर्घवाक्यं केवलं स्पष्टीकरणार्थं वर्तते क्लेशकरणार्थं नास्ति सर्वं तत्र प्रकृष्ट नाम तत्र सर्वं तत्र यत् वक्तुमिच्छामः केवलं तद् भवेत् अधिकमपि मास्तु न्यूनमपि मास्तु यद् वक्तुम् इच्छामः केवलं तद् भवेत् लक्षणवाक्यं तादृशं भवितव्यं यतोहि तत्र दोषराहित्यं भवेत् खलु वाक्ये नाम अव्याप्तिदोषः अपि मा न तत्र न न भवेत्
भवेत्
हा अव्याप्ति अतिव्याप्ति द्वयमपि न भवेत् अतः तत्र यावत्पर्यन्तं गन्तव्यं केवलं तावत्पर्यन्तमेव गन्तव्यम् अधिकमपि नास्ति न्यूनमपि न भवेत् इति अतः एव तत्र दीर्घवाक्यं भवति नो चेत् तत्र दोषः भवति इति कृत्वा अस्तु इदानीं तर्हि तत्र यदि चित्रे कोऽपि प्रश्नः नास्ति तर्हि वयं पुनः तत्र विद्याधर्यं तत्र अस्माकं तत्र
आचार्य अहम् एकं पठामि वा तत् दीर्घवाक्यं
पठतु भगिनि हा हा तत्र भवती कस्य कर्तुम् इच्छति समवायी वा असमवायी वा
द्वयोः करोमि
अस्तु किन्तु तत्र अन्यत् उदाहरणं स्थापयामि तर्हि समीचीनं वा
समीचीनम्
हा नाम तत्र अहं केवलं तत्र किञ्चित् परिवर्तनार्थं तत्र एतत् स्वीकुर्मः तर्हि अस्तु तत्र तन्तुः अपि तत्र पटः अत्र तन्तुः अस्तु भगिनि हा
तर्हि अत्र कपालः कारणं पट तन्तुः कारणं पटः कार्यम् अधिकरणं तत्सवः तर्हि पटे दीर्घता वर्तते पठनिष्ठकार्यता इयं कार्यता समवायसम्बन्धावच्छिन्ना तर्हि पठनिष्ठसमवायसम्बन्धावच्छिन्ना कार्यता निरूपित कारणता तादात्म्यसम्बन्धावच्छिन्नकारणता यः आश्रयत्वं कपाले
तन्तुषु अस्ति अतः कारणतायाः आश्रयत्वं तत्र समवायिकारणस्य तन्तूनां समवायिकारणानां लक्षणम्
किं वदामः
नाम आश्रयत्वं कारणतायाः आश्रयत्वं समवायिकारणत्वस्य एव नाम समवायिकारणत्वम् इति
इदं कारणत्वं समवायिकारणत्वं
कारणत्वं किमस्ति आश्रयत्वं नाम कारणतायाः आश्रयत्वम् एव तत्र समवायिकारणत्वम् नाम तस्य लक्षणं किम् अस्ति कारणताया आश्रयत्वं कपाले आश्रयत्वं यत् अस्ति अस्तु इदानीं तत्र असमवायिकारणस्थले पुनः तत्र तन्तुः पटः अपि तन्तुसंयोगः
तर्हि अत्र कारणं तन्तुः कारणं पटः
अत्र असमवायिकारणं तर्हि तन्तुसंयोगः
तन्तुसंयोगः तन्तुसंयोगः इति कारणं कार्यं पटः तन्तवः एव
तन्तवः अस्तु
तर्हि इदानीं पटे कार्यता वर्तते इयं कार्यता समवायसम्बन्धावच्छिन्नकार्यता तन्निरूपितकारणता इयं कारणता समवायसम्बन्धावच्छिन्नकारणता आश्रयत्वं
तस्याः आश्रयत्वं तस्याः आश्रयत्वं
हा तस्याः आश्रयत्वं कपालसंयोगः
आश्रयत्वं कपालसंयोगे वर्तते एतत् आश्रयत्वम् एव असमवायिकारणस्य लक्षणम्
आम् असमवायिकारणस्य लक्षणं
हा नाम असमवायिकारणं किम् अस्ति तत्र तन्तुसंयोगः तन्तुसंयोगः एव असमवायिकारणं तदेव अस्माकं लक्ष्यं खलु लक्ष्यम् इति किमस्ति यस्य लक्षणं दातुम् इच्छामः खलु तत्र लक्ष्यमस्ति तन्तुसंयोगः, तस्य लक्षणं किम् इत्युक्ते लक्ष्ये विशिष्टं लक्षणं लक्ष्ये एव भवेत् खलु, अन्यत्र अलक्ष्ये मा न भवेत् इति सर्वं दृष्टवन्तः. अथ लक्ष्ये किमपि विशिष्टं यत् अस्ति, धर्मः विशिष्टधर्मः वा विशिष्टः गुणः वा किमपि, अत्र वयं वदामः आश्रयत्वं. तत्र विशिष्टम् आश्रयत्वम् अस्मिन् कपाल तत्र तन्तुसंयोगे वर्तते, तदेव लक्षणम् असमवायिकारणस्य लक्षणम् इति. समीचीनं भगिनि, अस्तु धन्यवादः भगिनि, उत्तमं भवती कृतवती, अतः सर्वे कृतवन्तः. अस्तु इदानीं तर्हि तत्र वयं प्रायशः तत्र प्रायशः अतः आरभ्य पठामः, किञ्चित् पुनस्मरणं भवति किन्तु स्वीकृत्या अग्रे सरामः. तर्हि तत्र चन्द्रवती भगिनी नमस्कारः. नमस्कारः भगिनि. अस्तु इदानीं तत्र अन्य कोऽपि तत्र आरम्भति पठेत्, तर्हि तत्र उषा भगिनी भवती एवम् इति ततः आरभ्य पठति वा.
एवं तन्तुद्वयसंयोगः अपि तन्तौ समवायेन स्थित्वा तत्रैव समवायेन पटात्मकं कार्यं जनयति इति तन्तुद्वयसंयोगः पट असमवायी कारणम्. ओके, एवं दन्तु वयम् इदानीमेव दृष्टवन्तः. एवं तन्तुद्वयसंयोगः अपि तन्तौ समवायेन स्थित्वा तत्रैव समवायेन पटात्मकं कार्यं जनयति इति तन्तुद्वयसंयोगः पट असमवायी कारणम् इदानीमेव वयं दृष्टवन्तः.
समीचीनम्. अस्तु अग्रे,
यथा समवायीकारणे कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, तथैव इह अपि समवायः एव.
तर्हि समवायिकारणविषये यदा वयं समवायिकारणम् इति विषयं तत्र विषयस्य चर्चां तत्र सप्तमी अस्ति, तत्र
समवायिकारणे
विषये न तु साक्षात् समवायिकारणे, नाम तत्र अधिकरणम् इति अर्थः नास्ति, विषयसप्तमी समवायिकारणकरणम् इति विषये तत्र कार्यता आसीत्, कारणमपि आसीत्, तत्र कार्यं केन सम्बन्धेन तत्र अधिकरणे आसीत्?
कार्यं कपाल तादात्म्यसम्बन्धेन कपाले
न तत् कारणं तत्र उदाहरणं तत्र
कारणं कार्यं घटः कपाले समवायसम्बन्धेन वर्तते.
अतः
समवायीकारणे कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, कार्यतायाः अवच्छेदकः समवायसम्बन्धः,
समवायसम्बन्धः अस्ति खलु.
आं महोदय, आम्,
यतोहि कार्यम् अधिकरणे समवायसम्बन्धेन
सम्बन्धेन अस्ति,
समवायि अधिकरण समवायिकारणस्थले. यदि वयं समवायिकारणमिति पश्यामः तस्मिन् विषये कार्यं समवायसम्बन्धेन अधिकरणे
अस्ति. आं महोदय, तथैव इहापि समवायः एव. असमवायिकारणविषये समवायः एव
कः अस्ति,
कार्यतायाः अवच्छेदकसम्बन्धः
अस्ति खलु. यतोहि वयं दृष्टवन्तः तत्र अत्रापि समवायः अत्रापि समवायः कार्यता. तर्हि कार्यं समयसम्बन्धेन अस्ति, कार्यं समवायसम्बन्धेन
अस्ति,
समवायिकारणमिति विषये अपि अत्र अवच्छेदकः समवायः असमवायिकारणम्
इति कार्यस्य अवच्छेदकः
समवायसमवायः एव इति समीचीनं भगिनि. अतः इह अपि समवायः एव. इदानीं
कारणादिकरणे कपालद्वयसंयोगादिकरणे कपाले घटस्य समवायेन एव उत्पद्यमानत्वात् आम् अत्र असमवायिकारणस्य कृते कपालद्वयसंयोगः इति तस्य अधिकरणं कपालः अस्ति. कपालद्वयसंयोगाधिकरणे कपाले घटस्य समवायेन एव उत्पद्यमानत्वात् कपालद्वयसंयोगः इति कारणतः तदपि समवायसम्बन्धेन कपाले वर्तते.
तत्र भगिनि तत्र अंशत्रयम् इति उक्तं खलु, नाम तत्र यदि अत्र कारणम् इति असमवायिकारणम् इति विषयः खलु
असमवायिकारणविषये
इत्युक्ते कस्य अधिकरणे कारणम् असमवायिकारणस्य अधिकरणे कथं जानीमः तत्र असमवायिकारणस्य इति विषयः एव अस्ति, यतोहि अग्रे किं लिखितं कपालद्वयसंयोग अधिकरणे तस्मात् प्राक् कपालद्वयसंयोगः इति लिखितं, तर्हि कारणम् इत्युक्ते कपालद्वयसंयोगः वयं जानीमः तत्तु असमवायिकारणम् अस्ति खलु.
आम् महोदय.
अतः तस्य अधिकरणे किमस्ति कपाले समवायिकारणे
समवायेन एव उत्पद्यमानत्वात्
नाम घटस्य उत्पत्तिः अधिकरणे अथवा तत्र समवायेन एव भवति
उत्पद्यते.
नाम असमवायीकारणस्थले अपि कार्यं नाम घटः नाम कार्यम् अधिकरणे समवायसम्बन्धेन
एव
भवति. स्पष्टं खलु भगिनि?
आं महोदय.
प्रश्नः नास्ति खलु, नाम किमर्थम् अत्रापि समवायः एव इति अत्र उक्तं, तथैव इह अपि समवायः एव इति उक्तम्. अनन्तरं वाक्यं किमस्ति, समाधानं, किमर्थं वयं समवायः इति वदामः, यतोहि पश्यतु कार्यम् असमवायिकारणस्य अधिकरणे कार्यं घटः समवायसम्बन्धेन एव अस्ति खलु.
समाधानं
वयं पूर्वं वयं चर्चितवन्तः, किन्तु अत्र यदा वयं पठामः तत्र किमर्थम् एतद् वाक्यम् उक्तं, यतोहि समाधानं नाम वयम् उक्तवन्तः समवायः एव किमर्थम् इति. तत्र यः पठति तस्य प्रश्नः भवति, किमर्थं लेखकः समवाय एव इति उक्तवान्, अतः समाधानं पश्यतु भोः, तत्र कारणता नाम कपालद्वयसंयोगस्य अधिकरणे कपाले कार्यं घटः समवायसम्बन्धेन वर्तते इति. अस्तु, समीचीनं भगिनि, धन्यवादः. अग्रे तत्र पद्मा भगिनी अग्रे पठति वा?
कारणता अवच्छेदक तदारभ्य किल जि.
सत्यं भगिनि.
कारणता अवच्छेदकसम्बन्धः तु समवायीकारणत्वे तादात्म्यं प्रवेशितम् इह भवति समवायः एव, तथा च समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणता आश्रयत्वम् असमवायीकारणत्वम् असमवायिकारणत्वम् असमवायिकारणस्य च तदेव तटस्थलक्षणम्. कारणता कारणे कारणता अस्ति, कारणतायां कारणता अवच्छेदकसम्बन्धः भवति. तत् कथम् इत्युक्ते कारणं कार्ये केन सम्बन्धेन भवति, कारणम् अधिकरणे केन सम्बन्धेन भवति, तत् सम्बन्धः कारणता अवच्छेदकसम्बन्धः इति. तत् कारणता अवच्छेदकसम्बन्धः समवायी कारणत्वे साधात्म्यं प्रवेशितम्. अतः समवायीकारणस्थले तत् कारणता अवच्छेदकसम्बन्धः तु तादात्म्यसम्बन्धः एव
एव अस्ति. यतः वयं दृष्टवन्तः तादात्म्यसम्बन्धः एव तत्र वर्तते. समीचीनम्.
तथा च तत्र लक्षणवाक्यम्
इह भवति इत्युक्ते इह भवति समवायः एव इत्युक्ते
कारणे कार्ये एव अवच्छेदकसम्बन्धः तु समवायसम्बन्धः.
न न न इह इह इत्युक्ते इदानीं तत्र इदानीम् अत्र मूलविषयः कः? मूलविषयः अस्ति असमवायिकारणनिरूपणम्.
ओ अस्तु.
अतः इह इत्युक्ते तत्र समवायिकारणत्वे तादात्म्यं प्रवेशितम्. इह भवति
इत्युक्ते कारण समवायिकारणत्वे भवति समवायः एव इति कथं?
न नाम समवायिकारणस्थले तदा कारणम् अधिकरणे तादात्म्यसम्बन्धेन अस्ति इति खलु एतस्य वाक्यस्य अर्थः भवती यथा भवती उक्तवती खलु? नाम समवायिकारणस्थले तादात्म्यसम्बन्धेन एव कारणम् अधिकरणे भवति. इदानीम् इह इत्युक्ते असमवायिकारणस्थले कारणम् अधिकरणे केन सम्बन्धेन अस्ति?
समवायेन. सो इह इत्युक्ते
असमवायिकारणत्वे नाम असमवायिकारण
असमवायिकारणस्थले कारणम्
अवच्छेदकसम्बन्धेन
भवति. अतः कारणता अवच्छेदकसम्बन्धः तु समवायः
एव. अतः नाम कार्यता यदि वयं पश्यामः तत्र समवायिकारणम् असमवायिकारणम् तत्र स्थलद्वयमस्ति. प्रत्येकस्मिन् स्थले कार्यता अपि अस्ति कारणता अपि अस्ति. कार्यतायाः अवच्छेदकः अपि अस्ति कारणतायाः अवच्छेदकः अपि अस्ति. किन्तु पूर्वस्मिन् परिच्छेदे किम् उक्तं? कार्यतायाः अवच्छेदकः समानः स्थलद्वये समवायिकारणे असमवायिकारणे कार्यतायाः अवच्छेदकसम्बन्धः सर्वदा समवायः. अस्मिन् परिच्छेदे एतावत् किम् उक्तं? किन्तु कारणतायाः अवच्छेदकसम्बन्धः भिन्नः अस्ति. समवायिकारणस्थले
तादात्म्यं भवति, तत्र असमवायिकारणस्थले
समवायः भवति इति एव. समीचीनं. हा तावदेव अस्ति. अस्तु इदानीम् अग्रे. तथा च
तत्र लक्षणवाक्यं समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणताश्रयत्वम् असमवायीकारणत्वम् असमवायीकारणस्य च तदेव तटस्थलक्षणम्. असमवायीकारणस्य तटस्थलक्षणम् एवम् उक्तं यत् समवायसम्बन्ध अवच्छिन्न कार्यता तत्र कार्यता अवच्छेदकधर्मः तु समवायः एव. अतः समवायसम्बन्ध अवच्छिन्न कार्यता तद् कारणे तत्र निरूप्यनिरूपकसम्बन्धेन
अतः
निरूपितसमवायसम्बन्ध अवच्छिन्न कारणता. सो कारणता अवच्छेदकधर्मः तु समवायसम्बन्धः. अतः समवायसम्बन्धेन अवच्छिन्न कारणता तत्र आश्रयत्वं कारणे अस्ति, तदेव समवायिकारणमिति.
समीचीनं भगिनी. हा तदेव तटस्थलक्षणं. नाम तटस्थलक्षणं नाम तत्र लक्षणद्वयमस्ति. तत्र स्वरूपलक्षणम् इति वदामः, तटस्थलक्षणम् इति वदामः, नाम नदी अस्ति, साक्षात् नदीं न प्रदर्शयामः, नद्याः तीरमस्ति खलु, तीरं पश्यतु इति, तत्र तद् तीरं दृष्ट्वा तत्र तटस्थलक्षणम् इति अस्ति. अन्यत् उदाहरणमपि तत्र अस्ति, किन्तु नाम लक्षणवाक्यम् इति इदानीं स्वीकुर्मः. अस्तु, अत्र अतः तत्र एतदेव वयम् उक्तवन्तः खलु बहुवारं, वदतु भगिनि.
जि अत्र तटस्थलक्षणम् एव एतद् चेत् तत्र स्वरूपलक्षणं किम् इति?
हा, स्वरूपलक्षणं सर्वदा भगिनि तत्र क्लिष्टकरं भवति. तत्र प्रसिद्धौ उदाहरणं तत्र तटस्थलक्षणम् अपि तत्र स्वरूपलक्षणं, तत्र यत् उक्तं तत्र यद् अहं जानामि, तत्र प्रसिद्ध उदाहरणं वदामि, नाम तत्र परब्रह्मणः तत्र स्वरूपलक्षणमस्ति सत्यं ज्ञानमनन्तम् इति, किन्तु तटस्थलक्षणम् अस्ति तत्र विश्वस्य कारणं, जगत् जगतः कर्ता पालकः इति, एतत् सर्वं नाम तत्र यत् सर्वे सर्वं जगति भवति तत्सर्वं तस्य कारणं सः एव इति. अतः तत्र तटस्थलक्षणं तत्र अपि स्वरूपलक्षणं किमस्ति, तटस्थलक्षणं यावत् लक्ष्यं तत्र स्वरूपलक्षणं कीदृशम् अस्ति, यावत् लक्ष्यम् अस्ति तावत्पर्यन्तं लक्षणमपि तिष्ठति. तटस्थलक्षणं तत्र सर्वदा तत्र लक्ष्ये भवति इति न वक्तुं शक्नुमः, तदेव सः एव भेदः. तत्र अन्यत् उदाहरणं तत्र अहं यत् श्रुतवान् तदपि वदामि, तत्र कोऽपि तत्र आश्रमं गन्तुम् उत्सुकः अस्ति, ग्रामं गत्वा, नूतनग्रामं तत् परिचितं ग्रामं नास्ति, किन्तु सः ग्रामं गत्वा सः कमपि पृच्छति, अहं एतम् आश्रमं गन्तुम् इच्छामि, तत्र मार्गः कः इति. सः तत्र यं पृष्टवान् सः वदति, अस्तु भोः भवान् तत्र अग्रे गच्छतु, तत्र एकः तत्र नारिकेलवृक्षः वर्तते, यदि नारिकेलवृक्षं तत्र तस्य समीपं भवान् गच्छति, तत्र भवान् पश्यति आश्रमः तत्र समीपमेव अस्ति इति, तत्र आश्रमं भवति इति. अस्तु, सः गच्छति, पुनः तत्र मासानन्तरं पुनः आगच्छति, इदानीं सः जानाति तत्र मार्गः कः इत्युक्ते, तत्र नारिकेलवृक्षं पर्यन्तं गन्तव्यं, तदा तत्र आश्रमः दृश्यते, आश्रमं प्राप्नोति सः. किन्तु वर्षद्वयानन्तरं सः एकवारम् आगच्छति, तदा किं तत्र नारिकेलवृक्षः इदानीं नास्ति, किन्तु किं सः तत्र आश्रमः कुत्र वर्तते इति न जानाति वा? जानाति एव. अतः आश्रमस्य तटस्थलक्षणम् अस्ति तत्र नारिकेलवृक्षः इति वदन्ति, तत्र उदाहरणम्.
उपलक्षणमिति एकपदमस्ति खलु जि, तदेव वा
किं भगिनि?
उपलक्षणम् इत्यपि
उपलक्षणम् इति भिन्नम् अस्ति इति मन्ये भगिनि, तटस्थलक्षणम् इति हा इति भिन्नम् इति मन्ये भगिनि, हा किन्तु तत्र द्रष्टव्यं, हा यदि अन्य कोऽपि सम्यक्तया जानाति चेत् वदन्तु, हा किन्तु एतद् तत्र तटस्थलक्षणस्य उदाहरणद्वयम् यत् अहं जानामि. अस्तु अस्तु, तर्हि अग्रे सरामः. तर्हि तत्र इदानीं तत्र हा अस्तु, इदानीं तत्र नीता भगिनी अग्रे पठति वा?
इदमेव ग्रन्थकृता कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तम्. कार्येण घटेन सह एकस्मिन् अर्थे समवेतं समवायसम्बन्धेन विद्यमानं सत् कारणम् असमवायिकारणम्. यद्यपि च मूले कार्येण कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितं, तथापि तत्रत्यः कार्येण सह एकस्मिन् अर्थे समवेतम् इति भागः प्रथम असमवायिकारणनिरूपणोपयोगी कारणेति अंशः द्वितीयस्य असमवायिकारणस्य निरूपणाय तत्तु यथा अवसरं निरूपयिष्यते कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तं तत् वयं दृष्टवन्तः
इदानीं तत्र पदस्य प्रत्येकपदस्य अर्थः दत्तं हा नाम उदाहरणं स्वीकृतं तर्हि उदाहरणं किम् अस्ति अत्र अग्रिमे वाक्ये उदाहरणं नाम एतस्य वाक्यस्य उदाहरणम् अत्र अस्ति हा तर्हि
कार्येण घटेन सह एकस्मिन् अर्थे कार्येण घटेन सह एकस्मिन् अर्थे समवेतं समवायसम्बन्धेन विद्यमानं सत् कारणम् असमवायिकारणम्
तर्हि इदानीं वयम् असमवायिकारणं किम् इति जानीमः खलु भगिनि तत्र अस्मिन् विषये प्रश्नः नास्ति किन्तु वाक्यम् अपि तत्र अस्माकम् अवगमनं तयोः तत्र समन्वयः करणीयं तावदेव तर्हि असमवायिकारणम् इति यदस्ति तत् स्वीकुर्मः एतदेव तत्र असमवायिकारणम् इति चित्रं स्वीकुर्मः तर्हि इदानीं तत्र किमस्ति हा अस्तु हा अत्र कुत्र स्थापयामः किं कुर्मः अस्तु अत्र स्थापयामि तत्र प्रायशः तत्र किञ्चित् हा अपि एतत् लघु कर्तुं शक्नोमि अस्तु अस्तु भगिनि
असमवायिकारणं कपालद्वयसंयोगः इति स्वीकृत्य
तर्हि कार्यं किमस्ति अत्र घटः
तत्र कार्यमस्ति घटोत्पत्ति घटः इति कार्यं
अस्ति अपि तत्र कारणं किमस्ति
कारणमस्ति कपालद्वयसंयोगः
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 तर्हि कार्येण
किं लिखितमस्ति अत्र कार्येण घटेन सह एकस्मिन् अर्थे समवेतम्
एकस्मिन् अर्थे सह एकस्मिन् अर्थे नाम एकस्मिन् अर्थे तत्र सप्तमी अस्ति तत्र अधिकरणं सूचयति नाम घटेन सह एकस्मिन् एव अर्थे इत्युक्ते किमस्ति
घटेन सह एकस्मिन् एव अर्थे
इत्युक्ते कः नाम तत्र रामः गच्छति रामेण सह लक्ष्मणः अपि गच्छति इत्युक्ते तत्र सः इति तस्य अर्थः खलु अत्र घटेन सह कार्येण सह एतदपि वर्तते इत्युक्ते किम् अस्ति न्यायशास्त्रपदमेकमस्ति घटं घटं यत्र वर्तते घटेन सह वर्तते इत्युक्ते
कार्यम् अपि वर्तते एवं वा
न घटः इति कार्यम् अस्तु अस्तु तत्र तत्र असमवायिकारणमस्ति कपालद्वयसंयोगः खलु तस्य अधिकरणं किम् अस्ति संयोगस्य अधिकरणं
कपालद्वयसंयोगस्य अधिकरणमस्ति कपालः इति
कपालः घटस्य अधिकरणं
घटस्य अधिकरणम् अपि कपालः एव
अतः एक घटेन सह संयोगः वर्तते वा एकस्मिन् अर्थे
घटेन सह
एकस्मिन् एव अर्थे एकस्मिन् एव अधिकरणे कारणमपि वर्तते वा कार्ये कार्येण सह घटेन सह कारणमपि एकस्मिन्नेव अधिकरणे वर्तते वा
कपाल एव अधिकरणम्
कपाल एव अधिकरणं खलु
कपालः एव द्वयोः कृते कपाल एव
कपाल एव अधिकरणं तर्हि घटेन सह एकस्मिन् अर्थे इत्युक्ते सामानाधिकरण्यम्
अस्तु हा
खलु
सामान्य
एकस्मिन् अर्थे घटेन सह वर्तते घटः अपि तत्र वर्तते घटेन सह एतत् अपि वर्तते
एतत् अपि वर्तते घटेन सह समानाधिकरणे घटेन सह असमवायकारणम् इति अपि वर्तते
वर्तते अर्थे
निष्कर्षदृष्टि
समीचीनं हा समवेतं समवेतं नाम
पुनः एकवारं कार्येण घटेन सह एकस्मिन् अर्थे समानाधिकरणे कपाल इति समानाधिकरणे समवेतं समवायसम्बन्धेन विद्यमानं सत् कारणं समवायसम्बन्धेन विद्यमानमस्ति कपालद्वयस्य योगः कपाले एव तत् कपालद्वयस्य योगः इति भवति असमवायिकारणं
हा उत्तमं भगिनि हा नाम समवेतम् इति इत्युक्ते किं समवेतं नाम समवायसम्बन्धेन विद्यमानं सत्
इति
यत् यत् समवायसम्बन्धेन विद्यमानः अथवा विद्यमानम् अस्ति तदस्ति समवेतम् अत्र संयोगः एव समवेतः अस्ति कपाले अतः तत् कारणम् अत्र संयोगरूपकारणं संयोगरूपकारणं समवेतं नाम समवायसम्बन्धेन विद्यमानम् अस्ति अतः तत् कारणमस्ति
असमवायकारणं
तर्हि कार्येण सह एकस्मिन् अर्थे नाम
घटः इति कार्य कार्येण एकस्मिन् अर्थे समवेतं घटः एकस्मिन् अर्थे इति कपाले अधिकरणे कार्यरूपेण समवायिसम्बन्धेन समवेतम् इत्युक्ते समवेतं समवायसम्बन्धेन विद्यमानं घटः
नाम समीचीनं नाम घटः यस्मिन् अधिकरणे वर्तते अत्र कपालः तस्मिन् अधिकरणे एतद् समवायसम्बन्धेन वर्तते समवायसम्बन्धेन वर्तते इति कृत्वा एतत् असमवायिकारणम् कार्यस्य अधिकरणे यत् समवेतम् अस्ति तद् भवति असमवायिकारणम् इति अस्तु तर्हि हा अस्तु अग्रे
यद्यपि च मूले कार्येण कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितं यद्यपि च मूले मूले इत्युक्ते प्रारम्भे वा
तत्र तर्कसङ्ग्रहे इति चिन्तयामः
तर्कसङ्ग्रहः यद्यपि च मूले कार्येण कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितं तथापि तत्रत्यः कार्येण सह एकस्मिन् अर्थे समवेतम् इति भागः कार्येण सह एकस्मिन् अर्थे समवेतम् इति भागः कार्येण सह एकस्मिन् अर्थे इत्युक्ते अधिकरणे समवेतम् इत्युक्ते
इदानीम् अत्र वाक्ये एकस्मिन् अर्थे इति अस्ति एकस्मिन् अर्थे इति अस्ति तस्मात् प्राक् केवलं कार्येण इति एव अस्ति खलु किन्तु मूले किमस्ति कार्येण सह एकस्मिन् अर्थे कारणेन सह एकस्मिन् अर्थे इति कार्येण कारणेन सह एकस्मिन् अर्थे इति तत्र कार्येण अपि अस्ति कारणेन अपि अस्ति तत्र किन्तु अत्र केवलं कार्येण इति एव लिखितम्
मूले ग्रन्थे कार्येण सह एकस्मिन् अर्थे कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितम् अस्ति प्रथमधातु परन्तु एतत् विषये एतस्मिन् विषये कार्येण एव दत्तमस्ति कार्येण एकस्मिन् अर्थे एवं दत्तमस्ति
नाम तत्रत्यः इत्युक्ते तत्र विद्यमानः
तत्र
कार्येण कारणेन यत् अस्ति तेषु तत्र तयोः मध्ये कार्येण सह इति स्वीकृत्य वाक्यमस्ति भागः तत्रत्यः भागः तत्रत्यः भागः कः
कार्येण सह एकस्मिन् अर्थे समवेतम् इति तत्रत्यः
भागः
प्रथम असमवायिकारणनिरूपण उपयोगी प्रथम यत् प्रथम असमवायिकारणनिरूपण उपयोगी कारण इति अंशः द्वितीयस्य असमवायिकारणस्य निरूपणाय
नाम समवायि अत्र विषयः कः इत्युक्ते समवायिकारणम् एकमेव खलु एकमेव समवायिकारणम् अस्ति तत्र एकविद एव समवायिकारणं वर्तते नाम समवायिकारणं सर्वदा द्रव्यं भवति आश्रयः भवति एकमेव तत्र एकविधसमवायिकारणमेव अस्ति किन्तु तत्र असमवायिकारणस्थले किमस्ति तत्र द्वैविध्यं वर्तते तत्र असमवायिकारणमिति तस्य द्विविधा अस्ति एकमस्ति कार्येण सह यथा वयं दृष्टवन्तः एतत् उदाहरणम् एतत् उदाहरणं किमस्ति कार्यस्य अधिकरणे अस्ति असमवायिकारणं खलु
कार्यस्य अधिकरणे असमवायिकारणं विद्यते
समवायसम्बन्धेन अस्ति अतः कार्येण सह इत्युक्तम् एतत् उदाहरणं प्रथमविध असमवायिकारणं तस्य उदाहरणम् अस्ति कार्येण सह एकस्मिन् अर्थे समवेतम् इति भागः प्रथम असमवायिकारणनिरूपण उपयोगी
नाम
प्रथमविध असमवायिकारणं तस्य उदाहरणं भवति तस्य निरूपणं कार्येण सह इति तत्र लक्षणवाक्यं वाक्ये भवति यदि तत्र कार्येण इति स्थाने कारणेन इति स्थापयामः तर्हि कार्येण इति त्यक्त्वा तत्र कारणेन इति योजयतु तर्हि वाक्यं किं भवति अत्र
कारणेन सह
अत्र वाक्यमस्ति तत्र अस्मिन् वाक्ये
कारणेन एकस्मिन् अर्थे समवेतं सत्
कारणम्
असमवायिकारणम् इति उक्तम्
इति यदि तत्र स्थापयामः तद्भवति तत्र द्वितीय असमवायिकारणम् तत्र तर्हि तत्र एतद् वाक्यं किं भवति कार्येण एकस्मिन् अर्थे समवेतं सत् कारणं प्रथमविध असमवायिकारणं कारणेन एकस्मिन् अर्थे समवेतं सत् कारणं द्वितीय असमवायिकारणम् इति भवति अतः तत्र द्वितीय असमवायिकारणस्य निरूपणाय तस्य उपयोगः भवति नाम निरूपण उपयोगी निरूपणाय यदि कारणेन इति अत्र स्थापयामः तर्हि द्वितीय असमवायिकारणस्य इति भवति तत्र किन्तु तत्र यथावसरं तस्य निरूपणं कुर्मः तत्र अनन्तरं भवति इति तत्र केवलम् उदाहरणार्थं वदामि तत्र नाम यदि वयं चिन्तयामः एतावत् तत्र उदाहरणार्थं तत्र द्वितीयविधस्य उदाहरणं प्रायशः यदि लिखामः प्रायशः तत्र स्पष्टं भवति, नो चेत् तत्र किम् एतत् द्वितीयविध इति भवति, तर्हि तत्र घटः कपालः तत्र घटे रूपम् इति वर्तते, तर्हि तत्र घटरूपं प्रति कपाले यद् रूपं वर्तते, घटरूपं प्रति कपालरूपं कारणं भवति खलु?
आम्
खलु, नाम यदि कपालरूपं रक्तवर्णः रक्तरूपम् अस्ति चेत् घटरूपमपि रक्तरूपं
भवति,
तर्हि तत्र कपालरूपं घटरूपं प्रति कारणमस्ति. हा तर्हि कपालनिष्ठरूपं घटरूपं प्रति कारणम् अस्ति, किन्तु कीदृशकारणं? समवायिकारणं तु नास्ति, अपि असमवायिकारणं तु नास्ति, यतोहि तत्र रूपं तत्र कपाले अस्ति, एतद्रूपं तु घटे अस्ति, तर्हि तत्र कार्यम् अत्र अस्ति, अधिकरणं घटः अस्ति, किन्तु अत्र रूपं समासम्बन्धेन कपाले अस्ति, एतत् अधिकरणं भिन्नम् अस्ति, एतत् अधिकरणं भिन्नम् अस्ति. हा अतः तत्र एतत् प्रथमविध असमवायिकारणं न भवति, अतः नूतनविध असमवायिकारणस्य विवरणं दातव्यम्, तद् अग्रे कुर्मः. किन्तु एतत् उदाहरणं मनसि स्थापयतु, तत्र एतत् प्रथमविध असमवायिकारणं नास्ति इति. अस्तु अस्तु, तर्हि अग्रे सरामः. धन्यवादः भगिनि.
धन्यवादः.
तत्र हा चन्द्रमती भगिनी अग्रे पठति वा? एवम् इति
एवं द्रव्यगते एवं द्रव्यगतवेगत्वम् अपि समवायेन खण्डे स्थित्वा तत्र द्वित्वरूपं गुणमुत्पादयति इति, तत् अपि द्वित्वस्य असमवायी कारणं भवति.
अत्र अन्यत् उदाहरणं नाम
एवं द्रव्यगतमेकत्वम् अपि
गुणः अस्ति खलु
समवायेन, एकत्वम् इति गुणः, एकम् इति गुणः सङ्ख्यागुणः द्रव्यं द्रव्ये द्रव्ये अस्ति अधिक वर्तते, एवं द्रव्यगतम् एकत्वम् इति समवायेन घटे स्थित्वा तत्र द्वित्वरूपं गुणम् उत्पादयति, तत् अपि द्वित्वस्य असमवायीकारणं. प्रथमम् एकम् अस्ति, अनन्तरं द्वित्व द्वि एकम् इति गुणः खडे समवायेन भवति, तादृशं समवायेन खडे स्थित्वा द्वित्वम् इति गुणम् उत्पादयति.
उत्पादयति खलु इदानीं तत्र समीचीनम्. इदानीं केवलं केवलं किञ्चित् अवगच्छामः, तर्हि तत्र कारणं किं, कार्यं किम्, अधिकरणं किम् इति वदतु. तत्र
खडः अधिकरणम् एकत्वम् एकत्वं खडे अस्ति एकः गुणः.
न न, एकत्वं किम् अस्ति, कारणं कार्यं
कारणमस्ति,
कारणम् एकत्वं कार्यं कारणमस्ति. हा अपि द्वित्वं
द्वित्वम् अपि द्वित्वम् इति कार्यं द्वित्वम् इति कार्यम् अधिकरणं द्वयोः अधिकरणं खडः, द्वित्वमिति कार्यम् एकत्वमिति कारणम्, एकत्वमिति कारणं खडे समवायसम्बन्धः, कारणमपि समवायसम्बन्धः खडे.
इदानीं तत्र वयं कार्यस्य अधिकरणे तत्र कार्यम् अस्ति खलु, तत्र कार्यस्य अधिकरणे तत्र तत्र अर्थे कारणम् इति असमवायिकारणम् इति उक्तम्
उत्तररूपमपि असमवायि तत् अपि द्वित्वस्य असमवायिकारणं भवति द्रवि अल एकत्वं खण्डे अधिकरणं द्वित्वं कार्यम्
क्षम्यताम् अहं तत्र दोषेन उक्तवान् तत्र एतदपि तत्र प्रथमविद असमवायिकारणमेव
कारणस्य उदाहरणमेव
प्रथमविद असमवायिकारणस्य उदाहरणमेव तत्र
कार्यं कारणेन सह एकस्मिन् द्वित्वं कारणम् अधित्वं कार्यम् एकत्वं कारणम् अधित्वं एकत्वेन सह खडे एकस्मिन् खडे समवेदम् तदपि असमवायिकारणस्य
उदाहरणम्
प्रथमविध असमवायिकारणस्य एकम् उदाहरणम् अन्य उदाहरणम्
अन्यत् उदाहरणं द्वितीयविध इति नास्ति प्रथमविधस्य एव असमवायिकारणम् अस्ति द्वितीयविध असमवायिकारणस्य उदाहरणं यत् अहं पूर्वम् उक्तवान् तदेव द्वितीयविध असमवायिकारणस्य उदाहरणं किन्तु तत् अग्रे द्रक्ष्यामः इदानीं मास्तु तर्हि अग्रे सरामः खलु कोऽपि प्रश्नः एतावत् प्रथमविध असमवायिकारणस्य लक्षणं कार्येण सह एकस्मिन् अर्थे समवेतं यत् कारणं तदस्ति प्रथमविध असमवायिकारणम् तत्र
कार्येण सह एकस्मिन् अर्थे समवेदं यत् कारणं तद् असमवायिकारणम्
इति भवति समीचीनम् अस्तु इदानीम् अग्रेसरामः तर्हि इदानीम् एकत्वस्य द्वैविध्यम् इति नूतनविषयः अस्तु इदानीम् अग्रे तर्हि तत्र मृणालिनी भगिनी अग्रे पठति वा
एकत्वस्य द्वैविध्यम् इदं च द्वित्वा असमवायिकारणीभूतम् एकत्वं द्विविधं भवति जन्ये घटादौ विद्यमानम् अनित्यं घटोत्पत्तिद्वितीया दीक्षणे रूपादिगुणैः सह उत्पद्यते कालान्तरभावी द्वित्वादिकं प्रति असमवायिकारणं च अन्यत्तु एकत्वम् एतावत्
विवृणतु भगिनि यत् भवती पठितवती तावत्पर्यन्तं विवृणतु
एकत्वस्य द्वैविध्यम् इदं च द्वित्वा असमवायिकारणीभूतम् एकत्वं द्विविधं भवति
नाम एकत्वस्य द्वैविध्यं तत्र सर्वत्र एकत्वं समानमिति न वक्तुं शक्नुमः तत्र प्रकारद्वयं वर्तते अपि एकत्वं कीदृशमस्ति
एकत्वमिति गुणः
न किन्तु अत्र यत् उक्तं कीदृशं किमुक्तम् एकत्वम्
इदं च द्वित्व असमवायिकारणीभूतम् आम्
इदानीं वयं तत्र यत् चन्द्रमती भगिनी पठितवती तत्र किम् आसीत् विषयः कः आसीत्
प्रथमविध असमवायिकारणम्
प्रथमविध इति त्यजामः एतावत् असमवायिकारणम् इति एव यतोहि द्वितीयविध असमवायिकारणम् एतावत् वयं न जानीमः अतः असमवायिकारणम् इति चिन्तयामः तर्हि द्वित्वस्य असमवायिकारणं किम् अस्ति?
द्वित्वस्य असमवायिकारणमस्ति एकत्वम्।
एकत्वं खलु, तर्हि द्वित्वस्य असमवायिकारणम् एकत्वं खलु। तर्हि अत्र किं लिखितम्?
इदं च द्वित्व असमवायिकारणीभूतम् एकत्वम्।
एकत्वम् अर्थात् तावत्, इदं च एकत्वम्। कीदृशम् एकत्वम्? असमो द्वित्व असमवायि कारणीभूतं नाम कारणं, कारणीभूतं नाम कारणं, कारणम् अभवत्, कारणीभूतं द्वित्वस्य असमवायिकारणं यदस्ति एकत्वं द्विविधं भवति। तर्हि एकत्वं किमस्ति? द्वित्वस्य असमवायिकारणम् अस्ति। अस्ति, हा अग्रे।
जन्ये घटादौ विद्यमानान् अनित्यं घटोत्पत्ति द्वितीया दीक्षणे।
इदानीम् एतावत् तत्र
आचार्य आचार्य क्षम्यतां, ध्वनि बहु न्यून न श्रूयते। न न भगिन्याः मृणालिनी भगिन्या ध्वनिः बहु न्यूनं, सम्यक् न श्रोतुं शक्नोमि।
इदानीम्
इतोपि यदि सम्भवति चेत् वरं, नो चेत् कथमेतत् न जानामि, किन्तु बहु न्यून न्यूनमेव।
अस्तु भगिनि, तत्र स्पीकर् फोन् नास्ति चेत् मास्तु भगिनि, तत्र साक्षात् तत्र अथवा अन्या रीत्या तत्र किञ्चित् उच्चैः वदतु।
जन्यै घटादौ,
जन्ये
जन्ये जन्ये घटादौ विद्यमानं,
विभक्तिका सप्तमी खलु,
सप्तमी
अधिकरणसप्तमी, जन्यः घटः जन्ये घटे, नाम जन्ये घटे इत्युक्ते जन्यः इत्युक्ते किम्?
घट इति पदार्थः।
हा किन्तु जन्यः इत्युक्ते
यत् उत्पद्यते,
यस्य उत्पत्तिः भवति, नाम अनित्यम् अस्ति खलु, तस्य सर्वदा नास्ति, सर्वदा नास्ति, तस्य जन्म भवति, अतः जन्यः अस्ति, जन्यः घटः तस्मिन् विद्यमानं,
विद्यमानं अनित्यम्, अनित्यं,
तत् प्रथमविध एकत्वमस्ति। एकत्वम् एकविध प्रथमविध एकत्वं किमस्ति? यत् घटादौ जन्य नाम अनित्यपदार्थे एकत्वं यत् भवति, एकः घटः इति वदामः तदा घटे इति वर्तते खलु, घटः अस्ति, घटः अस्ति, किन्तु तत्र टैम् लैन् इति स्वीकरोतु, समयस्य रेखा एतावत्, अत्र घटः नासीत्, तदनन्तरं घटः नास्ति इति चिन्तयतु, घटः केवलम् अस्मिन् काले एव वर्तते इति चिन्तयतु, घटे विद्यमानः एकत्वं किम् अस्मिन् क्षणे आसीत् वा
न,
अस्मिन् क्षणे भवति वा एकत्वं?
नास्ति,
नास्ति, अतः एकत्वम् अनित्यम् अस्ति। घटे विद्यमानम् एकत्वम् अनित्यमस्ति खलु,
अनित्यमस्ति।
अग्रे,
घटोत्पत्ति द्वितीयादिक्षणे रूपादिगुणैः सह उत्पद्यते।
तत्र एकत्वं कदा उत्पद्यते घटे?
घटोत्पत्तिः द्वितीयक्षणे, यदा रूपगुणादि वयं दृष्टवन्तः, रूपं घटोत्पत्तिक्षणे नास्ति, द्वितीयक्षणे रूपं भवति इति।
तर्हि उपाधिगुणैः सह अपि उत्पद्यते खलु,
तदा एव वर्तते
इति अस्ति, तत्र सः एकत्वम् अपि उत्पद्यते,
रूपादिगुणैः सह उत्पद्यते, कालान्तरभावी भावी द्वित्वादिकं प्रति असमवायि कारणं च
हा नाम द्वित्वादिकं तं प्रति एकत्वम् असमवायिकारणम् अस्ति खलु
आम् अस्ति
हा किन्तु द्वित्वं किं यदा घटः अस्ति सर्वदा द्वित्वमपि भवति वा घटे
तेन उत्पन्नमिति
न न किन्तु सर्वदा भवति वा द्वित्वं घटे
न
यदि वयं पश्यामः एकः घटः घटः अस्ति एकः घटः अस्ति एकत्वं घटे वर्तते किन्तु वयं यदि वक्तुमिच्छामः तत्र घटे द्वित्वम् अस्ति तर्हि तत्र तत्र घटौ स्तः खलु यदा घटद्वयं भवति तदा एव तत्र घटे द्वित्वम् अस्ति इति वक्तुं शक्नुमः खलु अतः तत्र कालान्तरभावी नाम कदाचित् वर्तते कदाचित् न वर्तते द्वित्वं किन्तु द्वित्वं यदा भवति तस्य कारणम् असमवायिकरणं तु एकत्वम् एव अतः एकत्वं प्रथमविध एकत्वं किमस्ति अनित्यम् अस्ति द्वितीये क्षणे यदा रूपम् इत्यादिगुणः तेषाम् उत्पत्तिः भवति तदा एव एकत्वस्य अपि उत्पत्तिः भवति अपि कदाचित् यदा यदा तत्र द्वित्वम् इत्यादिकं द्वित्वं त्रित्वम् एतद् तेषाम् उत्पत्तिः भवति तदा तेषां प्रति अथवा तान् प्रति तत्र असमायिकरणम् एकत्वमेव भवति इति अस्ति समीचीनम् अस्तु धन्यवादः भगिनि इदानीं तत्र अशोक महोदय किञ्चित् एव समयः अस्ति किन्तु पठतु किं भगिनि
एकः सन्देहः अस्ति
हा वदतु भगिनि वदतु
तत्र एक घटः उत्पद्यते चेत् तत्र तस्मिन् क्षणे एकत्वं तस्मिन् घटे भवति
किल नास्ति घटोत्पत्तिक्षणे रूपरहित तत्र निष्गुण निष्क्रियां भवति तत्र निष्क्रियः भवति घटः
इति गुणः भवति किल
किं भगिनि
द्वितीयक्षणे एकत्वम् इति गुणः घटे
सत्यं द्वितीयक्षणे एव एकत्वं भवति सत्यं
परन्तु द्वित्वम् इत्युक्ते घटद्वयं वा
हा यदा घटद्वयम् अस्ति तदा वयं वक्तुं शक्नुमः घटद्वये अपि प्रथमे घटे अपि द्वित्वं भवति द्वितीये घटे अपि द्वित्वं भवति तदा
तदेव मम प्रश्नः यतः प्रथमघटे कारणं तु अन्यत् एकघटः किल एकत्वं
न न भगिनि नाम तत्र यदि तत्र घटद्वयम् अस्ति तदा तत्र घटे द्वित्वम् इति चिन्तयामः तदा तत्र द्वित्वस्य कारणमस्ति एकत्वम् इति
परन्तु एकत्वं प्रथमघटे घटे विद्यमान एकत्वं वा द्वितीयघटे विद्यमान एकत्वम्
इति वा अस्तु समीचीनप्रश्नः तत्र तस्य तद् अग्रे द्रक्ष्यामः तत्र द्वित्वस्य एतत् सर्वं प्रायशः अग्रे तस्य निरूपणं भवति इति मन्ये हा इदानीं केवलं तत्र असमवायिकरणस्य तत्र परिचयः कृतः किन्तु सङ्ख्यायाः यथावत् तत्र प्रायशः सर्वं निरूपितं नास्ति इति मन्ये किन्तु उत्तमप्रश्नः भगिनि द्रक्ष्यामः अग्रे यदि पुस्तके नास्ति चेदपि तत्र प्रायशः तत्र चर्चा भवेत् अग्रे समीचीनमेव समीचीनमेव
अहं चिन्तयामि यदि द्वित्वं भवति तर्हि इदं गुणम् उभयत्र अपि भवति घटद्वयेपि द्वित्वम् इति गुणं भवेत् उभयत्रापि
किन्तु प्रश्नः अस्ति तत्र साक्षात् असमवायिकरणं किम् इति तस्मिन् विषये किञ्चित् यद् भवती वदति सत्यमेव किन्तु किञ्चित् चिन्तयित्वा वदामि हा यतोहि तत्र किञ्चित् द्रष्टव्यमस्ति भगिनि अस्तु तर्हि तत्र अशोक महोदय क्षम्यतां तत्र भवान् अद्य न पठितवान् किन्तु अग्रिमे वर्गे निश्चयेन भवान् पठति क्षम्यताम् अस्तु तर्हि तत्र समीपे जातः अत्र अत्रैव स्थगयामः तर्हि. अस्तु, समीचीनमस्ति. तत्र असमवायिकरणस्य प्रथमविध असमवायिकरणस्य निरूपणम् अद्य कृतम् अस्माभिः. समीचीनमस्ति. इदानीं तत्र एकत्वस्य निरूपणं वर्तमानः निरूपणं वर्तमानम् अस्ति. अस्तु, तर्हि धन्यवादः, नमस्कारः. अग्रिमवर्गे मिलामः तर्हि. नमस्कारः,
धन्यवादः.